यः स्तूयते श्रुतिगणैर्निपुणैरजस्रम् सम्पूज्यते क्रतुगतैः प्रणतैः क्रियाभिः तं सर्वकर्मफलदं निजसेवकानां श्रीमद्विहारि चरणं शरणं प्रपद्ये यं मानसे सुमतयो यतयो निधाय सद्यो जहुः स हृदया हृदयान्धकारम् तं चन्द्रमण्डलनखावलिदीप्यमानं श्रीमद्विहारि चरणं शरणं प्रपद्ये येन क्षणेन समकारि विपद्वियोगो ध्यानास्पदं सुगमितेन मुतेन विज्ञैः तं तापवारणनिवारणसाङ्कुशाङ्कं श्रीमद्विहारि चरणं शरणं प्रपद्ये यस्मै विधाय विधिना विधिनारदाद्याः पूजां विवेकवरदा वरदास्य भावाः तं दाक्षलक्षणविलक्षणलक्षणाढ्यं श्रीमद्विहारि चरणं शरणं प्रपद्ये यस्मात् सुखैकसदनान्मदनारिमुख्याः सिद्धिं समीयुरतुलां सकलाङ्गशोभां तं शुद्धबुद्धिशुभवृद्धिसमृद्धिहेतुं श्रीमद्विहारि चरणं शरणं प्रपद्ये यस्य प्रपन्नवरदस्य प्रसादतः स्यात् तापत्रयापहरणं शरणं गतानां तं नीलनीरजनिभं जनिभञ्जनाय श्रीमद्विहारि चरणं शरणं प्रपद्ये यस्मिन् मनोविनिहितं भवति प्रसन्नं खिन्नं कदिन्द्रियगणैरपि यद्विषण्णं तं वास्तवस्तवनिरस्तसमस्तदुःखं श्रीमद्विहारि चरणं शरणं प्रपद्ये हे कृष्ण पादशमितातिविषादभक्तवाञ्छाप्रदामरमयिरुह पञ्चशाख संसारसागरसमुत्तरणे वहित्र हे चिह्नचित्रितचरित्र नमो नमस्ते इदं विष्णोः पादाष्टकमतिविषादाभिशमनः प्रणीतं यत्प्रेम्णा सुखविजगदीशेन विदुषा पठेद् यो वा भक्त्याच्युतचरणचेताः समनुजो भवे भुक्त्वा भोगान् विसरति चान्ते हरिपदम्।